अथ सप्तम स्कंध
अथ सप्तमोध्याय नारद उवाच एवं दैत्यसुत पृष्ठो महाभागवतो सुरः उवाच स्मयमानस्तान् स्मरन् मदनुभाषितम् प्रहलाद उवाच पितरि प्रस्थितेऽस्माकम् तपसे मन्दराचलम् युद्धोद्यमम् परम् चक्रुर्विबुधा दानवान् प्रति पिपीलकै ऐरिव दिष्ट्या लोकोपतापनः पापेन पापो भक्षिति वादिनो वासवादयः तेषामति बलोद्योगम् निशम्य सुरजुत्थपः बध्यमाना सुरैर्भीता दुद्रुवुः सर्वतो दिशम् कलत्र पुत्रमित्राप्तान् गृहान् पशुपरिच्छदान् नावेक्षमाणास्त्वरिता सर्वे प्राणपरिप्सवः व्यलुम्पन् राजशिबिरम् अमरा जय काङ्क्षिणः इन्द्रस्तु राजमहिषीम् मातरम् मम चाग्रहीत् नीयमानाम् भयोद्विग्नाम् रुदतीम् कुररीमिव यदृच्छया गतस्तत्र देवर्षिर्ददृशे पथि प्राहमयीनाम् सुरपते नेतुमर्हस्य नागशम् मुञ्च मुञ्च महाभाग सतीम् परपरिग्रहम् इन्द्र उवाच आस्तेस्या जठरे वीर्यमविषह्यम् सुरद्विषः आस्यताम् यावत् प्रसवम् मोक्षेऽर्थ पदवीम् गतः नारद उवाच अयम् निष्किल्विषः साक्षान् महाभागवतो महान् त्वया न प्राप्स्यते संस्थामनन्तानुचरो बलि इत्युक्तस्ताम् विहायेन्द्रो देवर्षेर्मानयन् वचः अनन्तप्रिय भक्त्यैनाम् परिक्रम्य दिवम् ययौ ततो नो मातरम् ऋषि समानीय निजाश्रमम् आश्वास इह उष्यताम् वत्से यावत्ते भर्तुरागमहम् तथ्येत्यवाचित् देवर्षेरन्ति साप्य कुतो भया यावत् दैत्यपतिर्घोरा तपसो न निवर्तत ऋषिम् परिचर तत्र भक्त्या परमया सति अन्तर्वत्नि स्वगर्भस्य क्षेमा इच्छा प्रसूते ऋषिः कारुणिकस्तस्य प्रादान् उभयमीश्वरः धर्मस्य तत्त्वम् ज्ञानम् च मामप्युद्दिश्य निर्मलम् तत्तु कालस्य दीर्घत्वात् स्थित्वान् मातुस्थिरो दधे ऋषिणानुगृहीतम् माम् नाधुना प्यजहात् स्मृतिः भवतामपि भूयान्मे यदि श्रद्धते वचः वैशारदीधि श्रद्धात स्त्रीबालानाम् च मे यथा जन्माद्या षडिमे भावा दृष्टा देहस्य नात्मनः फलानामिव वृक्षस्य काले नेश्वरमूर्तिना आत्मा नित्यो व्ययः शुद्ध एक क्षेत्रज्ञ आश्रयः अविक्रियः स्वदृग्हेतुर्व्यापको असंज्ञनावृतः एतैर्द्वादशभिर्विद्वानात्मनो लक्षणैः परैः अहम् ममेतसद्भावम् देहादौ मोहजम् त्यजेत् स्वर्णम् यथा ग्रावसु हेमकारः क्षेत्रेषु योगैस्तदभिज्ञयाप्नुयात् क्षेत्रेषु देहेषु तथात्मयोगै रध्यात्मविद्ब्रह्म गतिम् लभेत अष्टौ प्रकृतयः प्रोक्तास्त्रय एव हि तद्गुणः विकारः षोडशाचार्यै पुमानेकः समन्वयात् देहस्तु सर्वसङ्घातो जगत्तस्थुरिति द्विधा अत्रैव मृग्यः पुरुषो नेतीत्यतत्यजन् अन्वय व्यतिरेकेण विवेकेनोऽसतात्मना स्वर्गस्थान् समाम्नायैर्विमृशद्भिरसत्वरैः बुद्धेर्जागरणम् स्वप्न सुसुप्तिरिति वृत्तयः ताजनैवानुभूयन्ते सोऽध्यक्षः पुरुषः परः एभिस्त्रिवर्णैः पर्यस्तैर्बुद्धिभेदैः क्रियोद्भवैः स्वरूपमात्मनो बुद्धिर्गन्धैर्वायुमिवान्वयात् एतद्वारो हि संसारो गुणकर्म निबन्धनः अज्ञानमूलो पार्थोऽपि पुंसः स्वप्नैवेष्यते तस्माद्भवद्भिः कर्तव्यम् कर्मणाम् त्रिगुणात्मनाम् बीजनिर्हरणम् योगः प्रवाहो परमो धियः तत्रोपायसहस्राणाम् अयम् भगवतोदितः यदीश्वरे भगवति यथा जैरञ्जसा रतिः गुरु शुश्रूषया भक्त्या सर्वलब्धार्पणेन च संगेन साधु भक्तानां ईश्वराराधनेन च श्रद्धया तत्कथायां च कीर्तनैर्गुणकर्मणां तत्पादाम्बुरुहध्यानात् तल्लिङ्गेच्छार्हणाद्भिः हरिः सर्वेषु भूतेषु भगवान् आस्त ईश्वरः इति भूतानि मनसा कामैस्तैः साधु मानयेत्। एवं निर्जित सर्वर्गे क्रियते भक्तिरीश्वरे वासुदेवे भगवती जया संलभते रतिं। निशम्य कर्माणि गुणान् तुल्यान् विरजाणि लीला तनुभिः कृतानि जदाति हर्षोत्पुलकाश्रु गद्गदम् प्रत्कण्ठ उद्गायति रहति नृत्यति जदा ग्रह ग्रस्तैव क्वचिद् हसत्याक्रन्दते ध्यायति वन्दते जनम्। मुहुः श्वसन् भक्ति हरे जगत्पते नारायणेत्यात्ममतिर्गतत्रपः तदा पुमान् मुक्त समस्त बन्धनस्तद्भाव भावानुकृताशया कृतिः निर्दग्ध बीजानुशयो महीयसा भक्ति प्रयोगेण समेत्यधोक्षजम्। अधोक्षजा लम्भमिह शुभात्मनः शरीरिणः संसृति चक्र सातनम् तद्ब्रह्म निर्वाण सुखम् विदुर्बुधः ततो भजध्वम् हृदये हृदीश्वरम्। कोटि प्रयासो सुर बालका हरे उपासने स्वे हृदि छिद्र वत्सतः स्वस्यात्मनः सख्युरशेष देहिनाम् सामान्यतः किं विषयोपपादनैः रायः कलत्रम् पशवः सुतादयो गृहा महि कुञ्जर कोशभूतयः सर्वेऽर्थकामः क्षणभङ्गुरायुषः कुर्वन्ति मर्तस्य कियत् प्रियम् चलः। एवम् हि लोकः क्रतुभिः कृतायमि क्षयिष्णवः सातिशया न निर्मलः तस्मादृष्ट श्रुतदूषणम् परम् भक्त्यैकये सम्भजतात्मलब्धये। यदध्यर्थेह कर्माणि विद्वन्मान्यसकृन्नरः करोत्यतो विपर्यास ममोघम् विन्दते फलम्। सुखाय दुःखमोक्षाय सङ्कल्प इह कर्मिणः सदाप्नोति हया दुःखम् अनीहायाः सुखावृतः। कामान् कामयते कामैर्जदर्थमिह पुरुषः स वै देहस्तु पारक्यो भङ्गुरो जातुपैति च। किनु व्यवहितापत्य दारागार्धनादय राज्यम् कोशगजामर्त्य भृत्याप्ता ममतास्पदः। किमेतैरात्मनस्तुच्छय सह देहेन न स्वरहि अनर्थैरर्थ सङ्काशय नित्यानन्दमहोदधे। निरूप्यतामिह अस्वार्थ कियान् देहभृतोऽसुरः निषेकादिसवस्थासु क्लिश्यमानस्य कर्मभिः। कर्माणालभते देहि देहेनात्मानुवर्तिना कर्मभिस्तनुते देहम् उभयम् तो विवेकतः। तस्मादर्थाश्च कामाश्च धर्माश्च जदपाश्रयः भजता निहयात्मानम् अनीहम् हरिमीश्वरम्। सर्वेषामपि भूतानाम् हरिरात्मेश्वरः प्रियः भूतैर्महद्भिः स्वकृतैः कृतानाम् जीवसङ्गीतः। देवो सुरो मनुष्यो वा यक्षो गन्धर्व एव च भजन् मुकुन्द चरणम् स्वस्तिमान् स्याद्यथा वयम्। नालम् द्विजत्वम् देवत्वम् ऋषित्वम् वासुरात्मजः प्रीणनाय मुकुन्दस्य न वृतम् न बहुज्ञता न दानम् न तपोलेज्या न शौचम् न व्रतानि च। प्रियते मलया भक्त्या हरिरन्यद्विडम्बनम् ततो हरौ भगवती भक्तिम् कुरुत दानवः आत्मौपम्येन सर्वत्र सर्वभूतात्मनीश्वरे। दयते या जक्षरक्षांसि स्त्रियः शूद्रा व्रजौकसः खगा मृगाः पापजीवा सन्ति यच्युतताम् गतः। एतावानेव लोकेऽस्मिन् पुंसः स्वार्थः परः स्मृतः एकांत भक्तिर्गोविन्दे यत्सर्वत्र तदीक्षणम्। इति श्रीमद्भागवते महापुराणे परमहंस्याम् संहितायाम् सप्तमस्कन्धे प्रह्लादानुचरिते दैत्यपुत्रानुशासनम् नाम सप्तमोऽध्यायः।